इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। अद्य सायंकाले गुजरात राज्यस्य मुन्द्रापोताश्रये एलपीजी वाहक पोतः शिवालिकः प्राप्तवान्। अन्यः भारतीय पोतः नन्दादेवी श्वः आगमिष्यति। बिहार ओडिशा हरियाणा राज्येषु राज्यसभायाः 11 आसनानां कृते अद्य मतदानं सम्पन्नम्। अधुना मतगणना प्रचलति। लोकसभायां 26-2000 27-2000 च कृते रेल मन्त्रालयस्याधीनम् अनुदान विषयेषु चर्चा समारब्धा। निर्वाचनायोगेन पश्चिमबंगाल राज्यस्य 4 वरिष्ठ आरक्षकाधिकारिणां तत्कालं स्थानान्तरणं कृतम्। अपि च साहित्य अकादमी अद्य 24 भारतीय भाषासु स्वकीयान् वार्षिक साहित्य अकादमी पुरस्कारान् अघोषयत्। तत्र हि हिन्दी लेखिका ममता कालिया तथा च संस्कृत भाषायाः साधु भद्रेश दासः साहित्य अकादमी पुरस्कारेण सम्मानितौ भविष्यतः। अथ वार्ताः विस्तरेण। अद्य सायंकाले गुजरात राज्यस्य मुन्द्रापोताश्रये एलपीजी वाहक पोतः शिवालिकः प्राप्तवान्। नवदिल्ल्यां पश्चिम एशिया विषये आयोजिते अन्तर मन्त्रालयीय संवादे पत्तन पोत परिवहन मन्त्रालयस्य विशेष सचिवः राजेश कुमार सिंहः सूचितवान् यत् पोताश्रये प्राथमिकताधारेण स्थानं निश्चितं कृतं, येन सामग्री निक्षेपणे विलम्बः न भवेत्। तेनोक्तं यत् अन्यः भारतीय पोतः नन्दादेवी श्वः आगमिष्यति। पेट्रोलियम मन्त्रालयस्य संयुक्त सचिवः सुजाता शर्मा सूचितवती यत् देशे खनिज तैलं पर्याप्तमात्रायाम् उपलब्धमस्ति तथा च पेट्रोल पंप केन्द्रेषु तैलस्य न्यूनता नास्ति। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः सूचितवान् यत् ईरान स्थिताः प्रायः 50-500 भारतीयाः आर्मेनिया देशं तथा च 10 भारतीयाः अजरबैजान देशं स्थल सीमायाः माध्यमेन प्रविष्टवन्तः। तेन सूचितं यत् संकटकाले अपि ईराने स्थितः भारतीय दूतावासः पूर्णतया सक्रियः अस्ति। राज्यसभायाः सभाध्यक्षः जेपी नड्डा देशे सूचितस्य एलपीजी संकटकालस्य विषये कांग्रेसदलं राजनीति कुर्वन्नस्ति इति आरोपयन्, वर्तमान संकटः भारतस्य कारणात् नास्ति, तस्य निर्माणे भारतस्य किमपि योगदानं नास्ति इति उक्तवान्। सः सभायै सूचितवान् यत् विद्यमानायाः अन्ताराष्ट्रिय परिस्थित्याः कारणात् संकटम् उद्भूतमस्ति। अस्य संकटकालस्य प्रतिक्रियारूपेण सर्वकारः विस्तृतं चर्चां कृत्वा परिस्थितिं स्पष्टतया व्याख्यायितवान्, परन्तु ते श्रोतुं नेच्छन्ति।
मुझे दुख है कि हमारे विपक्ष विशेष करके इंडियन नेशनल कांग्रेस यह विपत्ति काल में भी देश में राजनीति करने से पीछे नहीं हटता। यह विपत्ति कोई भारत के कारण नहीं आई है, इसमें भारत का कोई योगदान नहीं है, लेकिन जो अंतर्राष्ट्रीय स्थिति हुई है उस अंतर्राष्ट्रीय स्थिति में आज हम सब लोग जानते हैं कि ये क्राइसिस आया है। इस क्राइसिस के बारे में हरदीप पुरी ने पूरी बातचीत कही है और हाउस में कहा है।
इतः प्राक् शून्य होरा काले विपक्षस्य नेता मल्लिकार्जुन खड़गे वर्यः सदने एलपीजी इत्यस्य विषयम् उपस्थापितवान् तथा च संकट कालस्य निवारणार्थम् आवश्यकानि उपायानि न स्वीकर्तुमपि आरोपितवान्।
ये चिंता की बात है कि कहीं एस्टेब्लिशमेंट ने अपने ऑपरेशन सीमित बंद कर दिए हैं, कुछ ऊंचे दामों पर 5000 प्रति सिलेंडर से अधिक कीमत पर खरीद कर रहे हैं। हमारे माननीय पेट्रोल मंत्री जी ने लोकसभा में दावा किया एलपीजी की कोई कमी नहीं है, रूमर से सावधान रहिए, लेकिन जमीनी हकीकत सरकारी दावों को गलत साबित करती है।
बिहार ओडिशा हरियाणा राज्येषु राज्यसभायाः 11 आसनानां कृते अद्य मतदानं सम्पन्नम्। अधुना सदने मतगणना प्रचलति। बिहार राज्यस्य 5 आसनेषु ओडिशायाः 4 तथा च हरियाणायाः 2 आसनयोः कृते एतत् निर्वाचनम् अभवत्। इतः प्राक् विभिन्न राज्यानां 26 अभ्यर्थिनः निर्विरोधं राज्यसभायै निर्वाचिताः सन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राज्यसभया अद्य नामांकितं सदस्यं रंजन गोगोईवर्यं निवृत्तिः प्रदत्तम्। यो हि अद्य उच्चसदनस्य कार्यावधिं समापयत्। प्रातः एकादशवादने यदा सभायाः आरम्भः अभवत् तदा सभापतिना सीपी राधाकृष्णनवर्येण घोषणा एषा कृता। सः अवदत् यत् भारतस्य पूर्व मुख्यन्यायाधीशेण श्री गोगोईवर्येण भारतस्य राष्ट्रपतिना कृत नामांकनानन्तरं 20-2000 मार्च मासे सभायां स्वीया यात्रा समारब्धा। राधाकृष्णनवर्यः अवदत् यत् विशिष्टेन न्यायविदेन श्री गोगोईवर्येण राज्यसभायाः चर्चासु अपूर्वं विधिज्ञानम् अनुभवञ्च आनीतम्।
Following his nomination by the Honorable President of India as a distinguished journalist, he brought unparalleled legal expertise and experience to the deliberations of the Rajya Sabha. The House will certainly miss his wise counsel, measured intervention, and the he brought to our discussions. I wish that he will continue to contribute to the nation in different capacities with the same dedication, integrity, and spirit of service that he has exemplified throughout his illustrious career.
लोकसभायां 26-2000 27-2000 च कृते रेलमन्त्रालयस्य आधीनम् अनुदानविषयेषु चर्चा समारब्धा। चर्चां प्रारभमाणः कांग्रेसदलस्य तारिक अनवरः आरोपयत् यत् सर्वकारः स्वलक्ष्यानां प्राप्तौ विफलः अभवत्। सः उक्तवान् यत् अमृत भारत स्टेशन योजनायाः अन्तर्गतं 37-3100 स्थानकेषु केवलं 60-100 स्थानकेषु एव पुनर्विकासकार्यं पूर्णं जातम्। अनवरमहोदयः एतदपि आरोपयत् यत् सर्वकारः यात्रीसुरक्षायाः नाम्नि केवलं घोषणाः करोति, तथा च सः भारतीय रेलमार्गेषु वृत्तेः न्यूनतां प्रति चिन्तां प्रकटितवान्। अपरपक्षे भाजपेति दलस्य गणेश सिंहः उक्तवान् यत् गत 10 वर्षेषु रेलक्षेत्रे महत्वपूर्णं परिवर्तनं जातम्। सः अवदत् यत् 30-2000 वर्षे रेल आयव्ययकं केवलं 63,000 कोटिरूप्यकाणि आसीत्, यत् अधुना वर्धित्वा 2.78 लक्ष कोटिरूप्यकाणि अभवत्। निर्वाचनायोगेन पश्चिम बंगाल राज्यस्य 4 वरिष्ठ आरक्षकाधिकारिणां तत्कालं स्थानान्तरणं कृतम्। निर्वाचनायोगेन राज्यस्य आरक्षकमहानिदेशकस्य, कारागारसेवामहानिदेशकस्य, अतिरिक्तमहानिदेशकस्य अपि च कोलकातायाः आरक्षक आयुक्तस्य स्थानान्तरणस्य आदेशो प्रख्यापितः। अवधेयं यत् 90-1900 आईपीएस अधिकारी सिद्धनाथ गुप्तः इदानीं पश्चिम बंगालस्य नूतनः आरक्षक महानिदेशको भविष्यति। सममेव 90-1900 आईपीएस अधिकारी अजय कुमार नन्दः कोलकाता नगरस्य आरक्षक आयुक्तत्वेन नियुक्तः। 91-1900 आईपीएस अधिकारी एन रमेश बाबू कारागार सेवा महानिदेशकत्वेन कार्यं विधास्यति। 94-1900 आईपीएस अधिकारी अजय मुकुंद रानाडे अतिरिक्त महानिदेशकत्वेन नियुक्तः। साहित्य अकादमी अद्य 24 भारतीय भाषासु स्वकीयान् वार्षिक साहित्य अकादमी पुरस्कारान् अघोषयत्। हिंदी लेखिका ममता कालिया स्वस्य जीते जी इलाहाबाद इत्यस्य कृते, प्रसिद्धः नवतेज सरना महोदयः स्वस्य क्रिम्सन स्प्रिंग इति आंग्ल उपन्यासाय, संस्कृतभाषायाः साधु भद्रेश दासः च साहित्य अकादमी पुरस्कारेण सम्मानिताः भविष्यन्ति। संस्कृति मन्त्रालयस्यानुसारम् अस्मिन् वर्षे 8 काव्य पुस्तकानि, 4 उपन्यासाः, 6 कथा संग्रहाः, 2 निबन्धौ च एतं सम्मानं प्राप्तवन्तः। एतदतिरिक्तम् एकं साहित्य समालोचनम्, एकम् आत्मचरितम् तथा 2 संस्मरणौ अपि पुरस्कारार्थं चितौ। प्रत्येकं विजेत्रे 1,00,000 रूप्यकाणि, एकः उत्कीर्ण ताम्र फलकः पुरस्काररूपेण मार्च मासस्य 31 दिनाङ्के एकस्मिन् विशेष समारोहे प्रदास्यन्ते। इति वार्ताः।